શ્રી આદિનાથ ભગવાન કી જય. આચાર્ય ગુરુવર શ્રી વિદ્યાસાગરજી મહારાજ કી જય. સ્વયં ભુવે નમસ્તુભ્ય મુત્પાદ્યાત્માનમાત્મની સ્વાત્મનૈવ તથોદ્ભૂત વૃત્તે ચિંત્ય વૃત્તે નમસ્તે જગતાંપત્યે લક્ષ્મી ભર્તૃ નમોસ્તુતે વિદાંવર નમસ્તુભ્યં નમસ્તે વદતાં વર કામશત્રુહણં દેવ મામનંતિ મનીષિણઃ સુરેણમૌલી ભામાલાભ્યર્ચિતક્રમં ધ્યાનતૃઘણ નિર્ભિન્ન ઘનઘાતી મહાતરુઃ અનંત ભવ સંતાન જયાદાસીદનંતચિત ત્રૈલોક્ય નિર્જયાવાપ્ત દુર્દર્પમતિ દુર્જયં મૃત્યુરાજં વિજિત્યાસીત જિન મૃત્યુંજયો ભવાન વિધૂતાશેષ સંસાર બંધનો ભવ્ય બાંધવઃ ત્રિપુરારિસ્ત્વમેવાસી જન્મ મૃત્યુ ચરાંતિકૃત ત્રિકાલ વિષયાશેષ તત્વભેદાત્રિધોત્થિતં કેવલાખ્યં દધત ચક્ષુસ ત્રિનેત્રોસિ ત્વમીશિતઃ ત્વામંધકાંતકં પ્રાહુર મોહાંધાસુરમર્દનાત્ અર્ધંતે નારયો યસ્મા દર્ધનારીશ્વરોસ્યતઃ શિવઃ શિવપદાધ્યાસાત્ દુરિતારી હરોહરઃ શંકરઃ કૃતસંલોકે શંભવંસ્ત્વં ભવંસુખે વૃષભોસી જગજ્જ્યેષ્ઠઃ પુરુઃપુરગુણોદયૈ નાભેયો નાભિસંભૂતે ઋક્ષ્વાકુકુલનંદનઃ ત્વમેકઃ પુરુષસ્કંધસ્ત્વં દેલોકસ્ય લોચને ત્વં ત્રિધા બુદ્ધસન્માર્ગસ્ત્રિક્યસ્ત્રિક્યાનધારકઃ ચતુઃશરણમાંગલ્ય મૂર્તિસ્ત્વં ચતુરસ્રધિઃ પંચબ્રહ્મવયો દેવ પાવનસ્ત્વં પુનિહિમાં સ્વર્ગાવતારિણેતુભ્યં સત્યો જાતાત્મને નમઃ જન્માભિષેક વામાય વામદેવ નમોસ્તુતે સન્નિષ્ક્રાંતાવઘોરાય પદં પરમમીયુષે કેવલજ્ઞાનસંસિદ્ધા વિષાનાય નમોસ્તુતે પુરસ્તત્પુરુષત્વેન વિમુક્ત પદભાજિને નમસ્તત્પુરુષાવસ્થાં ભાવિનીં તેત્ય વિભ્રતે જ્ઞાનાવરણ નિરહાસાન નમસ્તે નંતચક્ષુષે દર્શનાવરણોચ્છેદાન નમસ્તે વિશ્વદૃશ્વને નમો દર્શન મોહગ્ને ક્ષાયિકામલદૃષ્ટયે નમશ્ચારિત્રમોહગ્ને વિરાગાય મહોજસે નમસ્તે નંતવીર્યાય નમો નંતસુખાત્મને નમસ્તે નંતલોકાય લોકાલોકવિલોકિને નમસ્તે નંતદાનાય નમસ્તે નંતલબ્ધયે નમસ્તે નંતભોગાય નમો નંતોપભોગિને નમઃ પરમયોગાય નમસ્તુભ્યમયોનયે નમઃ પરમપૂતાય નમસ્તે પરમર્ષયે નમઃ પરમવિદ્યાય નમઃ પરમતચ્છિરે નમઃ પરમતત્વાય નમસ્તે પરમાત્મને નમઃ પરમરૂપાય નમઃ પરમતેજસે નમઃ પરમમાર્ગાય નમસ્તે પરમેષ્ઠિને પરમર્ધિચુષે ધામને પરમજ્યોતિષે નમઃ નમઃ પારે તમઃ પ્રાપ્ત ધામને પરતરાત્મને નમઃ ક્ષીણકલંકાય ક્ષીણબંધ નમોસ્તુતે નમસ્તે ક્ષીણમોહાય क्षीण दोषाय ते नमः नमः सुगतये तोभ्यं शोभनां गतिमीयुषे नमस्ते तिन्द्रियज्ञान सुखायानिन्द्रियात्मने कायबन्धन निर्मोक्षा दकायाय नमोस्तुते नमस्तुभ्यमयोगाय योगिनामधियोगिने अवेदाय नमस्तुभ्य मकशायाय ते नमः नमः परमयोगीन्द्र वन्दिताङ्घ्रिद्वयाय ते नमः परमविज्ञान नमः परमसंयम नमः परमदृक्दृष्ट परमार्थाय ते नमः नमस्तुभ्यमलेश्याय शुक्लेश्यांशकस्पृशे नमो भव्येतरावस्था व्यतीताय विमोक्षिणे संज्ञसंज्ञीद्वयावस्था व्यतिरिक्तामलात्मने नमस्ते वीतसंज्ञाय नमः क्षायिकदृष्टये अनाहाराय तृप्ताय नमः परमभाजुषे व्यतीताशेषदोषाय भवाब्धे पारमीयुषे अजराय नमस्तुभ्यं नमस्ते वीतजन्मने अमृत्यवे नमस्तुभ्य मचलायाक्षरात्मने अलमास्ताङ्गुणस्तोत्र मनन्तास्तावका गुणः त्वान्नाम स्मृति मात्रेण पर्युपासिषामहे एवं स्तुत्वा जिनं देवं भक्त्या परमया सुधीः पठेतष्टोत्तरं नाम्नां सहस्रं पापशान्ते इति प्रस्तावना प्रसिद्धाष्टसहस्रेद्ध लक्षणं त्वांगिरां पतिं नाम्नामष्टसहस्रेण तोष्टुमोऽभीष्टसिद्धये श्रीमान् स्वयंभुर्वृषभः शम्भवः शम्भुरात्मभुः स्वयं प्रभः प्रभुर्भोक्ता विश्वभूरपुनर्भवः विश्वात्मा विश्वलोकेशो विश्वतश्चक्षुरक्षरः विश्ववित् विश्वविद्येषु विश्वयोनिरनश्वरः विश्वदृष्ट्वा विभुर्धाता विश्वेशो विश्वलोचनः विश्वव्यापी विधिर्वेदः शाश्वतो विश्वतो मुखः विश्वकर्मा जगच्चेष्ठो विश्वमूर्तिर्जिनेश्वरः विश्वदृक्विश्वभूतेषु विश्वज्योतिरनीश्वरः जिनो जिष्णोरमेयात्मा विश्वरीशो जगत्पतिः अनन्तजीतचिन्त्यात्मा भव्यबन्धुरवन्धनः युगादिपुरुषो ब्रह्मा पञ्चब्रह्मामयः शिवः परः परतरः सूक्ष्मः परमेष्ठी सनातनः स्वयं ज्योतिरजो जन्मा ब्रह्मयो नीरयो निजः मोहारि विजयी जेता धर्मचक्रीदयाध्वजः प्रशान्तारीरनन्तात्मा योगी योगेश्वरार्चितः ब्रह्मविद् ब्रह्मतत्त्वज्ञो ब्रह्मोद्या विद्यतीश्वरः शुद्धो बुद्धः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः सिद्ध सिद्धान्तविध्येयः सिद्धसाध्यो जगद्धितः सहिष्णुरच्युतो नन्तः प्रभविष्णुर्भवोद्भवः प्रभुष्णुरजरोचर्यो भ्राजिष्णुरधीश्वरो व्ययः विभावसोरसम्भूष्णुः स्वयं भूष्णुः पुरातनः परमात्मा परञ्ज्योतिस्त्रिजगत्परमेश्वरः इति श्रीमदादिशतं नामधारी जिनेन्द्रेभ्यो नमो नमः दिव्यभाषापतिर्दिव्यः पूतवाक्पूतशासनः भूतात्मा परमज्योतिर् ધર્માધ્યક્ષોદમીશ્વર શ્રીપતિર્ભગવાન નરહન નરચા વિરચા શુચિઃ તીર્થકૃત કેવલીશાનઃ પૂજાર્હ સ્નાતકોમલઃ અનંતદીપ્તિર્જ્ઞાનાત્મા સ્વયં બુદ્ધઃ પ્રજાપતિઃ મુક્તઃ શક્તો નિરાબાધો નિષ્કલો ભુવનેશ્વરઃ નિરંજનો જગજ્યોતિર્નિરુક્તોક્તિર્નિરામયઃ અચલસ્થિતિરક્ષોભ્યઃ કૂટસ્થઃ સ્થાણુરક્ષયઃ અગ્રણીર્ગ્રામણીર્નેતા પ્રણેતા ન્યાયશાસ્ત્રીકૃત શાસ્તા ધર્મપતિર્ધર્મ્યો ધર્માત્મા ધર્મતીર્થકૃત વૃષધ્વજો વૃષાધીશો વૃષકેતુર્વૃષાયુધઃ વૃષો વૃષપતિર્ભર્તા વૃષભાંકો વૃષોદ્ભવઃ હિરણ્યનાભિર્ભૂતાત્મા ભૂતભૃદ્ભૂતભાવનઃ પ્રભવો વિભવો ભાસ્વાન ભવો ભાવો ભવાંતકઃ હિરણ્યગર્ભઃ શ્રીગર્ભઃ પ્રભૂત વિભવોદ્ભવઃ સ્વયં પ્રભુઃ પ્રભૂતાત્મા ભૂતનાથો જગત્પ્રભુઃ સર્વાદિઃ સર્વદૃક્સાર્વઃ સર્વજ્ઞઃ સર્વદર્શનઃ સર્વાત્મા સર્વલોકેશઃ સર્વવિદ્ સર્વલોકજિત સુગતિઃ સુશ્રુતઃ સુશ્રુત સુવાક્ સૂરિર્બહુશ્રુતઃ વિશ્રુતો વિશ્વતઃ પાદો વિશ્વશીર્ષઃ શુચિશ્રવઃ સહસ્રશીર્ષઃ ક્ષેત્રજ્ઞઃ સહસ્રાક્ષઃ સહસ્રપાદ ભૂતભવ્યભવદ્ભર્તા વિશ્વવિદ્યામહેશ્વરઃ ઇતિ શ્રી દિવ્યાદિશતમ નામધારી જિનેન્દ્રેભ્યો નમો નમઃ સ્થવિષ્ઠઃ સ્થવિરો જ્યેષ્ઠઃ પૃષ્ઠઃ પ્રેષ્ઠો વરિષ્ઠધીઃ સ્થિષ્ઠો ગરિષ્ઠો બંહિષ્ઠઃ શ્રેષ્ઠો નિષ્ઠો ગરિષ્ઠગિઃ વિશ્વભૃત વિશ્વસૃટ વિશ્વેત વિશ્વભૃગ વિશ્વનાયકઃ વિશ્વાશિર્વિશ્વરૂપાત્મા વિશ્વજિત વિજિતાંતકઃ વિભવો વિભયો વીરો વિશોકો વિચરોચરન વિરાગો વિરતો સંગો વિવિક્તો વીતમત્સરઃ વિનેય જનતા બંધુર્વિલીનાશેષકલ્મષઃ વિયોગો યોગ વિદ્વિદ્વાન વિધાતા સુવિધિ સુધિઃ શાંતિ ભાક પૃથ્વી મૂર્તિઃ શાંતિ ભાક સલિલાત્મકઃ વાયુમૂર્તિરસંગાત્મા વહની મૂર્તિરધર્મધૃક સુયજ્વાયજમાનાત્મા સુત્વા સૂત્રામપૂજિતઃ ઋત્વિક યજ્ઞપતિર્યજ્ઞો યજ્ઞાંગમમૃતં હવિઃ વ્યોમમૂર્તિરમૂર્તાત્મા નિર્લેપો નિર્મલોચલઃ સોમમૂર્તિઃ સુસૌમ્યાત્મા સૂર્યમૂર્તિર્મહાપ્રભઃ મંત્રવિન્મંત્રકન્મંત્રી મંત્રમૂર્તિરનંતકઃ સ્વતંત્રસ્તંત્રકૃત્સ્વાંતઃ કૃતાંતાંતઃ કૃતાંતકૃત કૃતિકૃતાર્થઃ સત્કૃત્યઃ કૃતકૃત્યઃ કૃતક્રતુઃ નિત્યો મૃત્યુંજયો મૃત્યુરમૃતાત્મા મૃતોદ્ભવઃ બ્રહ્મનિષ્ઠઃ પરમ બ્રહ્મ બ્રહ્માત્મા બ્રહ્મ સંભવઃ મહાબ્રહ્મપતિર્બ્રહ્મેત મહાબ્રહ્મ પરેશ્વરઃ સુપ્રસન્નઃ પ્રસન્નાત્મા જ્ઞાનધર્મદમપ્રભુઃ પ્રશમાત્મા પ્રશાંતાત્મા પુરાણ પુરુષોત્તમઃ ઇતિ સ્થવિષ્ઠાદિશતમ નામધારી જિનેન્દ્રેભ્યો નમો નમઃ મહાશોકધ્વજો શોકઃ કઃ સ્રષ્ટા પદ્મવિષ્ટરઃ પદ્મેશઃ પદ્મસંભૂતિઃ પદ્મનાભિરનુત્તરઃ પદ્મયોનિર્જગદ્યોનિ રીત્યઃ સ્તુત્યઃ સ્તુતીશ્વરઃ સ્તવનાર્હો ઋષિકેશો जितजेयः कृतक्रियः गणाधिपो गणज्येष्ठो गण्यः पुण्यो गणाग्रणी गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणनायकः गुणादरी गुणोच्छेदी निर्गुणः पुण्यगीर्गुणः शरण्यः पुण्यवाक्पूतो वरेण्यः पुण्यनायकः अगण्यः पुण्यधीर्गुण्यः पुण्यकृत् पुण्यशासनः धर्माय रामो गुणग्रामः पुण्या पुण्यनिरोधकः पापापेतो विपापात्मा विपाप्मा वीतकल्मषः निर्द्वन्द्वो निर्मदः शान्तो निर्मोहो निरुपद्रवः निर्निमेषो निराहारो निष्क्रियो निरुपप्लवः निष्कलङ्को निरस्तैना निर्धूतागा निराश्रवः विशालो विपुलज्योति रतुलो चिन्त्य वैभवः सुसंवृतः सुगुप्तात्मा सुहृत् सुनयतत्त्ववित् एकवीद्यो महावीद्यो मुनिः परिवृढः पतिः धीशो विद्यानिधिः साक्षी विनेता विहतान्तकः पिता पितामहः पाता पवित्रः पावनो गतिः राताभिषग्वरो वर्यो वरदः परमः पुमान् कविः पुराणपुरुषो वर्षीयान् वृषभः पुरुः प्रतिष्ठा प्रसवो हेतुर्भुवनैकपितामहः इति श्रीमहाशोकध्वजादिशतम् नामधारी जिनेन्द्रेभ्यो नमो नमः श्रीवृक्षलक्षणः श्लक्ष्णो लक्षण्यः शुभलक्षणः निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्करेक्षणः सिद्धितः सिद्धसङ्कल्पः सिद्धात्मा सिद्धसाधनः बुद्धबोध्यो महाबोधिर्वर्धमानो महर्धिकः वेदाङ्गो वेदविद्वेद्यो जातरूपो विदाम्बरः वेदवेद्यः स्वसंवेद्यो विवेदो वदताम्बरः अनादिनिधनो व्यक्तो व्यक्तवाक्व्यक्तशासनः युगादिकृत्युगाधारो युगादिर्जगदादिजः अतीन्द्रोऽतीन्द्रियोऽधीन्द्रो महेन्द्रोऽतीन्द्रियार्थदृक् अनिन्द्रियोऽहमिन्द्रार्च्यो महेन्द्र महितो महान् उद्भवः कारणं कर्ता पारिगो भवतारकः अगायो गहनं गुह्यं परार्घ्यः परमेश्वरः अनन्तर्धीरमेयर्धि प्रचिन्त्यर्धिः समग्रधिः प्राग्र्यः प्राग्रहरोऽभ्यग्रह प्रत्यग्रोग्र्योऽग्रिमोऽग्रजः महातपा महातेजा महोदर्को महोदयः महायशा महाधामा महासत्त्वो महाधृतिः महाधैर्यो महावीर्यो महासम्पन्महाबलः महाशक्तिर्महाज्योतिर्महाभूतिर्महाद्युतिः महामतिर्महानीतिर्महाक्षान्तिर्महादमः महाप्राज्ञो महाभागो महानन्दो महाकविः महाकीर्तिर्महाकान्तिर्महावपुः महादानो महाज्ञानो महायोगो महागुणः महामहपतिः प्राप्त महाकल्याणपञ्चकः महाप्रभुर्महाप्राति हार्याधीशो महेश्वरः इति श्रीवृक्षादिशतं नामधारी जिनेन्द्रेभ्यो नमो नमः महामुनिर्महामौनी महाध्यानी महादमः महाक्षमो महाशीलो महायज्ञो महामखः महाव्रतपतिर्महियो महाकान्तिधरोऽधिपः महामैत्री महामेयो महोपायो महोमयः महाकारुणिको मन्ता महामन्त्रो महायतिः महानादो महाघोषो महेज्यो महसाम्पतिः महाधरधरो धुर्यो महोदार्यो महिष्ठवाक् महात्मा महसान्धाम महर्षिर्महितोदयः महाक्लेशाङ्कुशः शूरो महाभूतपतिर्गुरुः महापराक्रमो नन्दो महाक्रोधरिपुर्वशी महाभवाब्धिसंसारिर्महामोहाद्रिसूदनः महागुणाकरः क्षान्तो महायोगीश्वरः शमी महाध्यानपतिर्ध्याता महाधर्मा महाव्रतः महाकर्मारिहात्मज्ञो महादेवो महेशिताम् सर्वक्लेशापहः साधुः सर्वदोषहरो हरः असङ्ख्येयो प्रमेयात्मा शमात्मा प्रशमाकरः सर्वयोगीश्वरो चिन्त्यः श्रुतात्मा विष्टरश्रवः दान्तात्मा दमतीर्थेषु योगात्मा ज्ञानसर्वगः प्रधानमात्मा प्रकृतिः परमः परमोदयः प्रक्षीणबन्धः कामारिः क्षेमकृत् क्षेमशासनः प्रणवः प्रणयः प्राणः प्राणदः प्रणतेश्वरः प्रमाणं प्रणिधिर्दक्षो दक्षिणोद्धर्युरध्वरः आनन्दो नन्दनो नन्दो वन्द्यो निन्द्योऽभिनन्दनः कामः कामदः काम्यः कामधेनुररिञ्जयः इति श्रीमहामुन्यादिशतं नामधारी जिनेन्द्रेभ्यो नमो नमः। असंस्कृतसुसंस्कारः प्राकृतो वैकृतान्तकृत् अन्तकृत्कान्तगुहुकान्तश्चिन्तामणिरभीष्टदः अजितोचितकामारी रमितोमितशासनः चितक्रोधोचितामित्रो जितक्लेशोचितान्तकः जिनेन्द्रः परमानन्दो मुनीन्द्रो दुन्दुभिस्वनः महेन्द्रवन्द्यो योगीन्द्रो यतीन्द्रो नाभिनन्दनः नाभेयो नाभिजो जातः सुव्रतो मनुरुत्तमः अभेद्योन्नत्ययो नाश्वा नधिकोधिगुरुः सुगिः सुमेधाविक्रमी स्वामी दुराधर्षो निरुत्सुकः विशिष्टः शिष्टभुक्षिष्टः प्रत्ययः कामनो नघः क्षेमी क्षेमङ्करो क्षय्यः क्षेमधर्मपतिः क्षमिः अग्राह्यो ज्ञाननिग्राह्यो ध्यानगम्यो निरुत्तरः सुकृति धातुरित्यार्हः सुनयश्चतुराननः श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः सत्यात्मा सत्यविज्ञानः सत्यवाक्सत्यशासनः सत्याशिः सत्यसन्धानः सत्यः सत्यपरायणः स्थीयान्स्थवीयान्नेदीयान् दवीयान् दूरदर्शनः अणोरणीयानणोर्गुरोराद्योगरीयसां सदा योगः सदा भोगः सदा तृप्तः सदा शिवः सदा गतिः सदा सौख्यः सदा विद्यः सदोदयः सुघोषः सुमुखः सौम्यः सुखदः सुहितः सुहृत् सुगुप्तो गुप्तिभृद्गुप्ता लोकाध्यक्षोऽधमीश्वरः इति श्री असंस्कृतादिशतं नामधारी जिनेन्द्रेभ्यो नमो नमः। ब्रहन् बृहस्पतिर्वाग्मी वाचस्पतिरुदारधिः मनीषी धीषणो धीमान् क्षेमो शीशो गिराम्पतिः नैकरूपो नयोत्तुङ्गो नैकात्मा नैकधर्मकृत् अविज्ञेयो प्रतर्क्यात्मा कृतज्ञः कृतलक्षणः ज्ञानगर्भो दयागर्भो रत्नगर्भः प्रभास्वरः पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः लक्ष्मीवांस्थित साध्यक्षो दृढीयानि नैषितां मनोहारो मनोज्ञाङ्गो धीरो गम्भीरशासनः धर्मयूपो दयायागो धर्मनेमिर्मुनीश्वरः धर्मचक्रायुधो देवः कर्महाधर्मघोषणः अमोघवागमोघाख्यो निर्मलो मोघशासनः स्वरूपः सुभगस्त्यागी समयज्ञः समाहितः सुस्थितः स्वास्थ्यभाक्स्वस्थो नीरजस्को निरुद्धवः अलेपो निष्कलङ्कात्मा वीतरागो गतस्प्रहः वशीन्द्रियो विमुक्तात्मा निःसपत्नो जितेन्द्रियः प्रशान्तोऽनन्तधामर्षिर्मङ्गलं मलहानघः अनीद्रगुपमा भूतो दिष्टिर्दैवमगोचरः अमूर्तो मूर्तिमानेको नैको नानैकतत्त्वदृक् अध्यात्मगम्यो गम्यात्मा योगविद्योगिवन्दितः सर्वत्र गः सदा भावी त्रिकालविषयार्थदृक् शङ्करः संवदो दान्तो दमी क्षान्तिपरायणः अधिपः परमानन्द परात्मज्ञः परात्परः त्रिजगद्वल्लभोऽभ्यर्चस् त्रिजगन्मङ्गलोदयः त्रिजगत्पतिपूज्याङ्घ्रिस् त्रिलोकाग्रशिखामणिः इति श्रीबृहदादिशतं नामधारी जिनेन्द्रेभ्यो नमो नमः। त्रिकालदर्शी लोकेषु लोकधाता दृढप्रतः सर्वलोकातिगः पूज्यः सर्वलोकैकसारथिः पुराणः पुरुषः पूर्वः कृतपूर्वाङ्गविस्तरः आदिदेवः पुराणाद्यः पुरुदेवोऽधिदेवता युगमुख्यो युगज्येष्ठो युगादिस्थितिदेशकः कल्याणवर्णः कल्याणः कल्यः कल्याणलक्षणः कल्याणप्रकृतिर्दीप्त कल्याणात्मा विकल्मषः विकलङ्कः कलातीतः कलिलग्नः कलाधरः देवदेवो जगन्नाथो जगद्बन्धुर्जगद्विभुः जगद्धितैषी लोकज्ञः सर्वगो जगदक्रजः चराचरगुरुर्गोप्यो गूढात्मा गूढगोचरः सद्यो जातः प्रकाशात्मा ज्वलज्ज्वलनसप्रभः आदित्यवर्णो भरमाभः सुप्रभः कनकप्रभः सुवर्णवर्णो रूक्माभः सूर्यकोटिसमप्रभः तपनीयनिभस्तुङ्गो बालार्काभो नलप्रभः सन्ध्याभ्रबभ्रूर्हेमाभस्तप्तचामीकरच्छविः निष्टप्तकनकच्छायः कनत्काञ्चनसन्निभः हिरण्यवर्णः स्वर्णाभः शातकुम्भनिभप्रभः द्युम्नाभोजातरूपाभस्तप्तजाम्बूनदद्युतिः सुधौतकलधौतश्रीः प्रदीप्तो हाटकद्युतिः शिष्टेष्टः पुष्टिदः पुष्टः स्पष्टः स्पष्टाक्षरः क्षमः शत्रुघ्नो प्रतिघोमोघः प्रशास्ता शासिता स्वभुः शान्तिनिष्ठो मुनिज्येष्ठः शिवतातिः शिवप्रदः शान्तिदः शान्तिकृच्छान्तिः कान्तिमान् कामितप्रदः श्रेयो निधिरधिष्ठानमप्रतिष्ठः प्रतिष्ठितः सुस्थिरः स्थावरः स्थाणुः प्रथीयान् प्रथितः प्रथुः इति श्रीत्रिकालदर्श्यादिशतं नामधारी जिनेन्द्रेभ्यो नमो नमः। दिग्वासावातरशनो निर्ग्रन्थेशो निरम्बरः निष्किञ्चनो निराशंसो ज्ञानचक्षुरमुमुहः तेजो राशीर अनंतौजा ज्ञानाभि शील सागरः तेजोमयो मितज्योतिर् ज्योतिर्मूर्तिस्तमोपहः जगच्चूडामणिर्दीप्तः संवान् विघ्नविनायकः कलिघ्नः कर्मशत्रुघ्नो लोकालोकप्रकाशकः अनिद्रालूरतन्द्रालुर्जागरूकः प्रमामयः लक्ष्मीपतिर्जगज्ज्योतिर्धर्मराजः प्रजाहितः मुमुक्षुर्बन्धमोक्षज्ञो जिताक्षोचितमन्मथः प्रशान्तरसशैलूषो भव्यपेटकनायकः मूलकर्ताखिलज्ज्योतिर्मलघ्नो मूलकारणः आप्तो वागीश्वरः श्रेयाश्रायसोक्तिर्निरुक्तवाग् प्रवक्ता वचसामीशो मारजित्विषभाववित् सुतनुस्तनुनिर्मुक्तः सुगतो हतदुर्नयः श्रीशः श्रीश्रितपादाब्जो वीतवीरभयङ्करः उत्सन्नदोषो निर्विघ्नो निश्चलो लोकवत्सलः लोकोत्तरो लोकपतिर्लोकचक्षुरपारधिः धीरधीर्बुद्धसन्मार्गः शुद्धसुन्दृतपूतवाक् प्रज्ञापारमितः प्राज्ञो यतिर्नियमितेन्द्रियः भदन्तो भद्रकृद्भद्रः कल्पप्रक्षोवरप्रदः समुन्मूलितकर्मारिः कर्म काष्ठाशु शुक्षणिः कर्मण्यः कर्मठः प्रांशुर्हेयादेयविचक्षणः अनन्तशक्तिरच्छेद्यस्त्रिपुरारिस्त्रिलोचनः त्रिनेत्रस्त्र्यम्बकस्त्र्यक्षः केवलज्ञानवीक्षणः समन्तभद्रः शान्तारिर्धर्माचार्योदयानिधिः सूक्ष्मदर्शी चितानङ्ग कृपालुर्धर्मदेशकः शुभं युः सुखसाद्भूतः पुण्यराशिरनामयः धर्मपालो जगत्पालो धर्मसाम्राज्यनायकः इति श्रीदिग्वासादि अष्टोत्तरशतनामधारी जिनेन्द्रेभ्यो नमो नमः धाम्नां पते तवामूनि नामान्यागमकोविदैः समुच्चितान्यनोध्यायन् पुमान् पूतस्मृतिर्भवेत् गोचरोऽपि गिरामासां त्वमवाग्गोचरो मतः स्तोता तथाप्यसन्दिग्धं त्वत्तोऽभीष्टफलं भजेत् त्वमतोऽसि जगद्बन्धुस्त्वमतोऽसि जगद्भिषक् त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धितः त्वमेकं जगतां ज्योतिस्त्वन्द्विरूपोपयोगभाग् त्वं त्रिरूप्यैकमुक्त्यङ्गः स्वोत्थानन्तचतुष्टयः त्वं पञ्चब्रह्मतत्त्वात्मा पञ्चकल्याणनायकः षड्भेदभावतत्त्वज्ञस्त्वं सप्तनयसङ्ग्रहः दिव्याष्टगुणमूर्तिस्त्वं नव केवललब्धिकः दशावतारनिर्धार्यो मां पाहि परमेश्वर युष्मन्नामावलीद्रब्ध विलसत्स्तोत्रमालया भवन्तं वरिवस्यामः प्रसीदानुग्रहाणनः इदं स्तोत्रमनुस्मृत्य पूतो भवति भक्तिकः यः सम्पाठं पठत्येनं सस्यात् कल्याणभाजनं ततः सदेदं पुण्यार्थी पुमान् पठतु पुण्यधी पौरुहूतिं श्रियं प्राप्तुं परमामभिलाषुकः स्तुत्वेति मघवादेवं चराचरजगद्गुरुं ततस्तीर्थविहारस्य व्यथात् प्रस्तावनामिमां स्तुतिः पुण्यगुणोत्कीर्तिः स्तोता भव्यः प्रसन्नधिः निष्ठितार्थो भवान् स्तुत्यः फलं नैश्रेयसंसुखं यस्तुत्यो जगतान्त्रयस्य न पुनः स्तोता स्वयं कस्यचित् धियो योगी जनस्य यश्च नितराम् ध्याता स्वयं कस्यचित् योनिन्द्रिं नयते नमस्कृतिमलम् नन्तव्यपक्षे क्षणः स श्रीमान् जगतान्त्रयस्य च गुरुर्देवः पुरुः पावनः तन्देवं त्रिदशाधिपार्चितपदं घातिक्षयानन्तरं प्रोत्थानन्तचतुष्टयञ्जिनमिमं भव्याब्जिनीनामिनं मानस्तम्भविलोकनानत जगन् मान्यं त्रिलोकीपतिं प्राप्ता चिन्त्य बहिर्विभूतिमनघम् भक्त्या प्रवन्दामहे भक्त्या प्रवन्दामहे भक्त्या प्रवन्दामहे इति श्रीभगवच्चन्सहस्रनामस्तोत्रम्।